इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। राष्ट्रपतिपदासीना श्रीमती द्रौपदी मुर्मुवर्या अद्य उत्तरप्रदेशस्य वृन्दावने रामकृष्ण मिशन सेवाश्रमस्य नन्दकिशोर सोमानी ऑन्कोलॉजी इति खण्डस्य उद्घाटनं करिष्यति। सा उड़िया बाबा आश्रमं दावानलकुण्डं च द्रष्टुं निश्चिता अस्ति। राष्ट्रपतिः मुर्मुः वृन्दावने नीव करोली बाबा इत्यस्य समाधिम् अपि गत्वा पुष्पाञ्जलिं समर्पयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः कतरदेशस्य अमीर शेख तमीम बिन हमद अल थानी इत्यनेन सह दूरभाषद्वारा वार्तालापं कृत्वा तं कतरदेशस्य जनेभ्यश्च ईदुत्सवस्य शुभाशयाः प्रेषितवान्। सामाजिक प्रसार माध्यमे प्रधानमन्त्री अवदत् यत् सः कतरदेशेन सह ऐक्यं स्थापयित्वा क्षेत्रस्य ऊर्जा आधारिक संरचनायाः उपरि कृताक्रमाणां दृढतया निन्दां करोतीति। सद्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिना ओमानस्य जॉर्डन देशस्य फ्रांस देशस्य मलेशिया देशस्य च नेतृभिः सह उच्चस्तरीय कूटनीतिक वार्तालाप श्रृंखलायां वार्तालापो विहितः। संवादः कूटनीतिं क्षेत्रीय स्थिरताञ्चाधिकृत्य भारतस्य प्रतिबद्धतां पुनः दृढीकर्तुं पश्चिम एशिया देशे उद्विग्नतां न्यूनीकर्तुं केन्द्रितः आसीत्। सम्पूर्णे गल्फ प्रदेशे ऊर्जा स्थापनानामुपरि सद्यः एव कृताक्रमणानां विषये भारतं चिन्तां प्रकटितवान्। प्रकरणमिमञ्च अतीव चिन्ताजनकम् इति अमन्यत। प्रसारमाध्यमानां प्रश्नानां प्रतिक्रियारूपेण विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् आक्रमणानि पूर्वमेव अनिश्चित वैश्विक ऊर्जा परिदृश्यम् अस्थिरं करिष्यन्तीति। श्री जयसवालः अवदत् यत् एतादृशानि आक्रमणानि अस्वीकार्याणि सन्ति, तेषां निवारणम् आवश्यकमिति। नवदेहल्यां प्रसारमाध्यमान् सम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् ऊर्जा आपूर्तिः प्रमुखः चिन्तायाः विषयः अस्तीति।
We have condemned these strikes because they have targeted civilian infrastructure and they have caused a lot of misery to people. You would have seen our statement. We once again unequally condemn these barbaric airstrikes from Pakistan into Afghanistan. Obviously, it does not, it vitiates the atmosphere in the region. It is not helpful at all.
अफगानिस्तान देशे पाकिस्तानस्य वायु आक्रमणस्य विषये चर्चां कुर्वन् श्री जयसवालः अवदत् यद् भारतम् एतादृशानां बर्बर आक्रमणानां निन्दां करोतीति। इज़राइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू वर्यः अवदत् यद् इज़राइल देशः अमेरिका देशश्च ईरान देशं प्रति देशं विरुध्य सैन्य अभियानेन सम्पूर्णे विश्वस्य रक्षणं कुर्वन्तौ स्तः इति। जेरूसलम नगरे पत्रकार सम्मेलनम् सम्बोधयन् नेतन्याहुवर्यः अवदत् यत् इज़राइल आक्रमणैः ईरान देशस्य सैन्यक्षमतायाः महद् अधः पतनं जातमस्तीति। तेहरान देशः इतोपि यूरेनियम संवर्धयितुं न शक्नोतीति, बैलिस्टिक मिसाइल इत्यस्य निर्माणमपि कर्तुं न शक्नोति इति। ईरान देशप्रमुखं वैश्विक तैलमार्गं बाधयित्वा विश्वं बन्धयितुं प्रयतमानः अस्तीति आरोपयन् इज़राइल देशस्य प्रधानमन्त्री दृढतया उक्तवान् यत् एतादृशाः प्रयत्नाः न सफलाः भविष्यन्तीति। साम्प्रतिक उपग्रह आधारित दूरसञ्चार केन्द्राणाम् अनुरक्षणार्थं सशस्त्रबलानां कृते अतिरिक्त केन्द्राणां व्यवस्थायै च एकीकृत रक्षा कर्मचारी मुख्यालयः इसरो संस्थायाः स्पेस एप्लीकेशन सेंटर इति संस्थया च सहमतिपत्रं हस्ताक्षरितम्। कांग्रेसदलं केरलस्य आगामि विधानसभा निर्वाचनार्थम् अभ्यर्थिनां द्वितीय सूचीम् अघोषयत्। 37 अभ्यर्थिनां नामांकनमपि अकरोत्। अरुबिक्करा क्षेत्रात् कांग्रेसदलस्य वरिष्ठः नेता वी एस शिवकुमारः दलेन नामांकितः अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना इन्दिरागान्धी राष्ट्रिय कलाकेन्द्रस्य न्यासधारिभिः सह मिलित्वा राष्ट्रस्य विविध संस्कृतेः लोकप्रियतायाः विषये च चर्चां कृतमस्ति। अन्ते क्रीडा वार्तायां ओर्लियन्स मास्टर्स क्रीडायां बैडमिंटन क्रीडायां तन्वी शर्मा ईशरानी बरुआ मालविका वंसोड च फ्रांस देशस्य पालेस दे स्पोर्ट्स क्रीडायां महिलानां एकल क्रीडायाः प्रागुपान्त्य चक्रे प्रवेशं प्राप्तवत्यः इति वार्ताः।